ஸ்ருதி யோ ப்ரஹ்மாணம் விதாதி பூர்வம் யோ வை வேதாஸ்த ப்ரஹிணோதி தஸ்மை தகும்ஹ தேவமாத்ம புத்தி பிரகாசம் முமுக்ஷுர் வை சரணமஹம் ப்ரபத்யே. நமோஸ்து ராகவாயாஸ்மை ராமாயாமித தேஜசே யோ சஞ்சக்ரே ஜனகவத் ஹீனாந்நம் சஜதாயிஷம் மூகம் கரோதி வாசாலம் பங்கும் லங்கயதே கிரிம் யத் கிருபா தமஹம் வந்தே பரமானந்த மாதவம். ஸ்ரீ ஜகத்குரு ராமபத்ராச்சாரிய விகலாங்க விஸ்வவித்யாலயஸ்ய பரம பாவனி பரிசரே சம்ஸ்கிருத வாங்மய விகலாங்கானாம் யோகதானம் இது விஷயம் கேந்திரீகிருத்த சமாயோஜிதாயாம் அஸ்யாம் சம்ஸ்கிருத ராஷ்ட்ர சங்கோஷ்டியாம் பாக ஜிகிர்ச்சயா சம்பஸ்திதானாம் சமேஷாம் விதுஷாம் சமாசாம் ச விதுஷீனாம் சமாசாம் ச விதுஷீனாம் பாக்யம் அபிநந்தம் அபிநந்தம் வந்தம் வந்தம் ச நீல் சரசீர்வசியாமம் நீல் துருவாதரசியாமம் நீலாதசி புஷ்பசியாமம் சதநீலகணசியாமம் லோகாபிராமம் பூர்ணகாமம் பரப்ரஹ்ம பரமாத்மானம் ஜானகி ஜானிம் தனுஷ்பாணிம் மரியாதா புருஷோத்தமம் மைதிலி மனோரமம் பரப்ரஹ்ம பரமதான பரம பவித்ர பரம விசித்திர கார்மிகி நிர்விலீப சங்கரமாம்ச புண்டரீக மோசித்த மோஜித் பக்தபோபந்தன கௌசல்யானந்தவரதன நிரஸ்த சமஸ்தி ஹே குணப்ரத்யனீக சங்கலித சகல கல்யாண குணகணைக நிலை பரிகல்த பரிகல்த பக்த பிரணயோத்தம ஸ்லோக விரோதித நிகிலி முன்மன கமல கோபு கோபந்து சங்கா சரீர காந்தி ஹிருத சகல ஜன மன கிளாந்தி சமனந்த கோட்டு பிரம்மாண்ட நாளுக்க கரகமல மண்டித சாப சாயக வதல் சுசாந்த சாந்த சௌந்தர்ய விடம்பித் கோட்டு 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 சதபந்த சாயக தினிகருக்கு சரோஜ ஜனநாயக கலிமல கதன் சோபாசதன் மோகித் மதன் கலிமல 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 கதன் சச்சிதானந்த கலைக்கு சோபாசித்து பிரணத்தைக்க மந்து பந்துர் துரீன பரம் பிரவீண ராஜீவலோச்சன தாவித பால கோரோச்சனானங்க தர்ப்பமோச்சன கோட்டி கோட்டி கண் தர்ப்ப தர்ப்பமோச்சன ராஜா விராஜ மகாராஜ் பூபால சக்கரவர்த்தி சக்கர சூடாமணி சியாம சுந்தர முகுந்த கோசலேந்திர ராமச்சந்திர ஸ்ரீமத் சரண சரசேதுகம் வந்தம் வந்தம் ச ஆத்மனோ பூரி பாக்யம் அவகலேன் அஹம் பிரகாமம் மோமுத்தி ஸ்வாகத பாஷணம் ஸ்ருதம் ஸ்வாகத கீதஞ்ச சமஸ்ராவி சஹ்ரியத்ராவம் அஸ்மாகம் விஸ்வவித்யாலயஸ்ய சங்கீத விபாகாத்யக்ஷ வரியானாம் ஸ்ரீமதாம் விசேஷ நாராயண மகா மகாபாகானாம் श्रीमन मुखारविंदा एवं च सोहर गीतम समस्यावि अस्माभि मयैव मयैव विरचितस्य गीत सीतारामोपनामधेयस्य गीत रामायणस्य एकं मंगलमयं पद्यं अस्माकं विश्वविद्यालये ममैव निर्देशे ममैव निर्देशने शोध कार्यं कुर्वाणायाः परिकलित परम भाग धेयायाः सुस्त्रियः ज्योतिषः तस्याश्च द्वयोरन्ययोः सहयोगिन्योः कन्योः मुख कमलेभ्यः यद् गीतं श्रावं श्रावं मम हृदयं तु एतावत् भावुकं जातम् आभ्य किं दीयेत मया यद्यप सत्रमिदं परं पुरस्कार प्रक्रियार्थं नास्ति किन्तु मया मनसा तु पुरस्कारो दत्त एव मया दीयतां वा न दीयतां वा एतस्मै गीताय तु पुरस्कृतेयं ज्योतिः साक्षात् ज्योतिषां ज्योतिषामपि ज्योतिषा नीलज्योतिषा राघवेण यदि कोऽपि राघवेण पुरस्कृतो भवति तर्हि अन्येषां पुरस्काराणां तस्यै तस्मै काप्यपेक्षा न जायते इति मामकीनः कश्चन वर्तते निरक्तयः प्रत्ययः मित्राणि विषयोऽयं विचारार्थम् अस्यां सङ्गोष्ठ्यां यः निश्चितो वर्तते तस्य नाम भवन्तः समाकलितवन्त एव संस्कृतवाङ्मये विकलाङ्गानां योगदानम् विकलाङ्गशब्दं श्रुत्वा कदाचित् भवन्तः खिन्नाः भवेयुः तर्हि मा भुवन् खिन्नाः यतोहि विकलाङ्गशब्दस्य अस्मद्दर्शने विगतानि अङ्गानि येषां ते विकलाङ्गा इति नास्ति व्युत्पत्तिः अस्माकं दर्शने व्युत्पत्तिर्वर्तते विशिष्टाः कलाः अङ्गेषु येषां ते विकलाङ्गाः येषाम् अङ्गेषु येषाम् अङ्गेभ्यः पूर्वं कलाः समाप्ता आसन् तेषाम् अङ्गेषु विशिष्टा कला सम्पादयितुं मयैव स्थापितोऽयं जगद्गुरुरामभद्राचार्य विकलाङ्गविश्वविद्यालयः यस्याहं जीवनपर्यन्तकुलाधिपतितां निःशङ्कं निःशङ्कं सम्मर्दित सकलविरोधं सम्प्राप्त भगवदनुरोधं सानुरोधं निर्भामि निर्भयम् मान्या विकलाङ्गानामेषां शरीरे अङ्गेषु विशिष्टा कलाः मया सम्पाद्यन्ते सम्पादयिष्यन्ते च एतत् श्रुत्वा कदाचित् भवन्तः प्रमोदमावक्ष्यन्ति यत् दशवर्षस्यास्मिन् लघिष्ठतमे लघिष्ठे कार्यकालेऽपि मया अस्मादेव विश्वविद्यालयात् लब्धशिक्षाः पञ्चसहस्राधिकाः छात्राः लब्धजीविकाः कारिताः अधुना वक्तव्यविषयमाधृत्य किमपि विवक्षामि तत्र विदुषाम् अनुमतिं समीहे मित्राणि के विकलाङ्गा ये च संस्कृतवाङ्मये योगदानं कृतवन्तः अवदानं कृतवन्तः अनुदानं कृतवन्तः अनुदानं कृतवन्तः एवं स्वकीयं स्वकीयस्य बहुमूल्यस्य ज्ञानस्य प्रदानं च कृतवन्तः इति विमर्शविषयो वर्तते तत्र विकलाङ्गानाम् इतिहासोऽपि कश्चन मनोरमतमः प्रारम्भतः वैदिक वैदिक वाङ्मयानुसारं सूर्य आत्मा जगतस्तस्थुषश्च इति राद्धान्तो वर्तते। तस्थुषश्च अर्थात जगस्य जगतः चेतनस्य च अस्य संसारस्य सूर्य आत्मा तस्य सूर्यस्य जगदात्मनो जगदात्मभूतस्य सूर्यनारायणस्य सारथिर्यः वर्तते अरुणः सच विकलाङ्गः एवं च महाकविर्माघ आमनति गतं तिरश्चीन मनूरुसारथे इति शिष्पाल पदस्य प्रथम सर्गस्य द्वितीय श्लोके समवलोकनीयं वर्तते। अनूरुसारथि सूर्यः सूर्यनारायणः सर्वेषां चक्षुर्देवता तस्यापि यदि सार्थं कोऽपि निर्वहति स च वर्तते विकलाङ्गः द्वाभ्यां चरणाभ्यां हीनः अरुणः अरुण एव प्राच्यामुद्गच्छन् कालिमानमपहर्तुं प्रयतते इति सर्वे वयं निःसन्देहं विध्वस्तसकलतर्कसन्दोहं समवगच्छामः। मित्राणि तस्य योगदानं वर्तते सर्वत्र। अरुणो न स्यात् तर्हि किं स्यात्? पूर्वमध्यमायां वयं पठामः स्म कदाचित् अस्माकं मित्राणि समवगमिष्यन्ति, विशेषतः त्रिपाठीचरणाः। शिवराजविजयनामानमेकं ग्रन्थं भवन्तः सर्वे जानन्ति। शिवराजविजयस्य प्रथमं वाक्यम् अरुण एष प्रकाशो भगवतो मरीचिमालिनः। अरुणानन्तरं द्वितीयस्मै योगदानाय तच्चरणतामरसयोः श्रद्धाञ्जलिं दीत्सति मामकीनं शान्तं स्वान्तम् स च वर्तते अष्टावक्रः यन्नाम्ना ख्यातिं गते चास्मिन् सभागारे भवन्तः सर्वे समवेताः सन्ति इमं विषयं निजवाक् पुष्पाञ्जलिभिः सत्कर्तुं स च अष्टावक्रः अष्टौ अङ्गानि वक्राणि यस्य तादृशः यस्य सम्पूर्णानि अङ्गानि वक्राणि वर्तन्ते तेन योगदानं किं कृतं संस्कृतसाहित्ये भवन्तो न जानन्ति। संस्कृतवाङ्मये गतदिवसे सायन्तने काले मानसदर्शनं प्रति गच्छता मया सह समनुगच्छता मम मित्रेण कुलपतिवर्येण निगदितं विकलाङ्गाः दर्शने मे किं कृतवन्तः। मया कृतं दर्शने यत् कृतवन्तस्तत् शङ्कराचार्योऽपि न कृतवान्, न केनापि कृतं। दर्शने सर्वप्रथमं दार्शनिकी भूमिका यदि केनचित् प्रारब्धा स च वर्तते अष्टावक्र स च अष्टभिरपि अङ्गैः स च अष्टाभिरप्यङ्गैर्विकलाङ्गः इति सर्वे जानन्ति। अष्टावक्रस्य सम्पूर्णा कथा मया हिन्द्यां महाकाव्यरूपेण लिखिता, तद्भवन्तः पठिष्यन्ति अष्टावक्रमहाकाव्ये। अष्टावक्रस्य योगदानं स्मारं साक्षात् श्रीमद् रामचन्द्रचरणारविन्द चन्तरिकतां सम्प्राप्तः अभिनव वेदावतारं रामायणं जनयिष्यमाणस्तत्र भवान् श्रीराम नाम सुहासन्धुक्षितहृदयः सप्रणयः कवीनां प्रथमाचार्यः शाश्चर्यः आदिकविर्महान् विद्युत्तल्लदः श्रीमान् वाल्मीकिः युद्धकाण्डस्य ऊनविंशत्यधिकसप्तमे सर्गे श्रीमद् दशरथमुखात् प्रशंसां कारयितुं मनागपि न जिघ्रेति, सच कथयति। युद्धे निहत लोक रावण रावणम् निज चंत चंत चंड को दंड समुद्रावित सकल वित्रावणम् पतित पावन परम पावन पाद सरसे रुहम मर्यादा पुरुषोत्तम दैवताम शाम शाम इष्ट दैवतम दैवतान दैवतम सूर्य साप सूर्य अग्नेरग्नि प्रभो प्रभु श्रेयश्रियम श्रेयश्रियम प्रज्ञा प्रज्ञा क्षमा 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 दैवतानां दैवतम भूतानां भूत सत्तमम परम 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 राजक सत्तमम श्रीमंतम भगवंतम श्री राघवम परिकलित लाघवम संबोधयन चक्रवर्ती महाराजो दशरथ प्रेण चक्रवर्ती महाराज दशरथ दशरथ प्रेणगादि तारितो हम त्वया पुत्र श्रेणैवोक्तात् कर्मणा अष्टावक्रेण पुत्रेण कहोलो ब्राह्मणो यथा। अष्टावक्रस्य अष्टावक्र गीता अद्यापि कोट्युत्तर वर्षाणि व्यतीत्यापि समेषां दार्शनिक मुकुटमणीनां शिरांसि तच्चरण चरण पयोरुहयोर्नमयितुं समुत्साहयति। अष्टावक्र गीतायाः एकम एकम श्लोकम अस्माकम अत्र भवतां च विशोकाय प्रकामं भविष्यतीति मदीया वर्तते काचित् श्रद्धा। जनकं संबोधन अष्टावक्र प्राह किमिच्छसि वत्स। यो जनकः पूर्वं अष्टावक्रस्य अवमानं कृतवान् अद्यापि विकलांगानां वैरुत्यं दृष्ट्वा सकलांग अपमन्यते बारं बारं जनाः मां कथयन्ति किन्तु मम हृदयं न विश्वसिति। यतो इदं सर्वं मया अनुभूतं वर्तते। अहं सकलांगान प्रति आकृष्टो नास्मि, आक्रोशो नास्ति मदीय। अहं जगद्गुरुः, जगद्गुरुस्तु सर्वेषां गुरुः पिता भवति। किन्तु प्राक्तनं कालं यदापि स्मरामि तदापि मदीयोः नेत्रयोः अश्रूणि निश्चितमेव आतीकन्ते। सकलांगा यथा विकलांगान प्रत्यधुना प्याचरन्ति। पूर्व समय कियान भयावहो भवेत् इति भवन्तः कल्पयन्तु। सर्वे विद्वांसो बन्दिनस्तत्र जनकराजसभायाम्। अष्टावक्र शास्त्रार्थं कर्तुं राजसभायां गन्तुकामः। पार्श्वस्था मम वर्तन्ते, मम ज्येष्ठ भगिन्यः युष्माकं भवतां तत्र भवतां भवतां बुवाजी महाभागाः ताः मम जीवनस्य प्रत्येकक्षणस्य साक्षयः सन्ति, जानन्ति माम्। दृक्सभायां गन्तुकामः। केवलं वैकलाङ्ग्यात् जनानां निषेधपात्रं भवन् निर्वाग्वैदग्ध्येन सर्वान् पराविभूषु जनकं प्रति शापोपं प्रत्युत्तरन् अष्टावक्र प्रा इदमुदरगरी दुरन्तपुरा यदि न भवेद् अवमानभङ्गभूमि कथमपि न सहे भवातृषाणां कुटिलकराकटाक्षनिरीक्षणं नृपाणाम्। अष्टावक्रस्य अप्रतिमेन पाण्डित्येन समखण्डितेन सारस्वत मण्डितेन विशुद्ध वैभवेन పరాగో భూయమానో జనక అగ్నౌ కనకమివ ఆత్మనోభిమానం తచ్చరణ సరోహృయో సమర్పయితు కామక్షమాం యాచమాన ఆసి తేన పృష్ట అస్తే తేన పృష్టోష్టావక్ర ప్రా కిమిచ్చసి వత్స జనకేన ముముక్షా ప్రకాశిత యతో హి వేదస్య రాధాంతే సర్వే భవంతో జానన్ సర్వే భవంతో జానంతి తమేతం బ్రాహ్మణా భూషంతి వేదానువచనేన జగ్గే జగ్గేన తప్సా నాశకేన అర్థాత్ భగవత్ స్వరూప విదిశా వేదానువచనత తపస అనాశకేన చ జాయతే సాధనానీమాని బిబిలిసా బిబిలిసా జాగరణే సహకారి కారణతామాతీకంతే అర్థాత్ యావత్ కాలం బ్రాహ్మణ వేదానువచనం నా కరిష్యతి యావత్ కాల పర్యంతం తపో న కరిష్యతి కేవలం సమోషాదికం ఖాదిష్యతి సూత్రాదికం ధారయిత్వా వైదేశిక దేశేన ఆత్మ సత్తాం చాత్మానేతుం దుస్సాహం కక్ష్యతి కాలపర్యంతం తస్య హృదయ బిబిలిషాయా జాగరణం న భవిష్యతి ఇది వైదిక సిద్ధాంత ఇది హేతు జనకేన నిగృహీతం బ్రాహ్మణ చరణ కమల సేవకతయా మయా సంపూర్ణాని తాని సాధనాన్ని యథా బ్రహ్మ విభిదిశా స్యాత్ తర్ బ్రహ్మ విభిదిశాయాం లక్ష్యం కిం తేనోక్తం ముముక్ష ముముక్షుర్ వైశరణమహం ప్రపద్యే ముక్షుశ్శరణం ప్రపత్స్యసే చేత్ కిం కర్ష్యసి తదా ముండుకోపనిషది నిగదతి భగవతి శృతిః తమేతం తద్విజ్ఞానార్థం తద్విజ్ఞానార్థం సర్వాణి శ్రోత్రం తద్విజ్ఞానార్థం స గురుమేరావిగచ్చేత్ సమిత్రాణి శ్రోత్రం బ్రహ్మనిష్టం పరిక్షలోకాన్ కర్మకృతాన్ బ్రాహ్మణో నిర్వీదం నిర్వేదమాయా నాస్తకృత కృతేన తద్విజ్ఞానార్థం స గురుమేరావిగచ్చేత్ సమిత్రాణి శ్రోత్రం బ్రహ్మనిష్టమితి కశ్చన గురుని మిలేత్ యోస్మాకం హృదయ నిగూఢం నిగూఢమంధకారం అపజిహిర్షే తర్హి అష్టావక్రం నిగదితవాన్ కిం మాం గురు మన్యసే జనకేన కష్టం ప్రకామం అలం వ్యాక్యవలకేన అలమన్యైర్ విద్వద్భే గురుస్తు భవాన్ ఏవ యతో భూశబ్దస్తంధకారశ్చాద్రుశబ్దస్తం నిరోధకృత్ అంధకార నిరోధత్వా గురునిత్య విధీయతే భవత్సు అంధకార నిరోధికాం క్షమతాం పశ్యామః అతో భవంతో భవంతో స్మద్గురువః తదా పునఃపృష్టో జనక కిమిచ్చసి తర్హి జనకేన నిగేతం అస్మాత్ పరికృత అస్మాత్ పరికృత విషయ నక్రాత్ సంకృత భీమ 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 విషయ భుజంగా భుజంగావళి సమౌలీఢా సుదూరత పరికలిత మహా మహామాయామయ ప్రబలతమ తరంగా నిజశల్య ప్రభాధారాభి విదూషితాం తరంగా అభంగా సంకరిత సంగా సంసార సాగరా మోక్షమిచ్చతి జనక తదానీం అష్టావక్రే అష్టావక్రీయ ప్రథమే శ్లోకే నిగదితం యత్ సావధానైస్తత్ర భవద్భిః సమాకరణ్యతాం ముక్తిమిచ్ఛసి చేద్వత్స విషయాన్ విషవత్యజ క్షమార్దవ దయాతోషం సత్యం చైవ సమాచర యత్ సుందరయం శ్లోక యస్య వ్యాఖ్యానం సంపూర్ణం దర్శనం యుస్మాకం ఆకృశాద్ భవిష్యతి ఇతి మదీయ వర్తతే కశ్చన్ పరికల్పిత பரிகல்பித ஹர்ஷஸ்வாசோ விஸ்வாச. விமுக்திமிச்ச சிவத்து தரி விஷயான் சப்தஸ்பர்சுருகந்தான் தானே க்ஷமாம் ஆர்ஜமம் தயாம் தோஷம் சத்தம் ச சமாச்சரேதி. கிம் அஷ்டாவக்ர கீதையா கிம் அஷ்டாவக்ர கீதையா பரம காமன சத்பாவ பரீதையா சகல தர்சன முகுட மணிதாம் சன்னேத்யா நைவ யோகதானம் சமுதாய சம்ஸ்கிருத வாங்மே ஏவமேயோ சம்ஸ்கிருத வாங்மை யோகதானஸ்ய யதாச்சார காக்கரிஷத் கிரீதே द्युत्रान क्षणान ग्रहण यज्ञ उद्घाटक समय भवत उद्घाटन सत्र सत्र विशेष मया भी सब प्रणय समय संपयोग चिकीर्षित वर्तते तत्र भवतां साहाय्यम संयाच मानोहम किमपि निगदामि. मित्राणि संस्कृत वाङ्मय से द्वितीय धारा वर्तते साहित्य धारा மல்பாசமான பௌர்பிர் மௌனைர் பக்தவ்யம் இது மையா தட்சிணா யாச்சதே. சாம்பிரதமம் குலாதிபதி குலாதிபதேர் அனுசாஸ்திரம் சர்வேஷாம் கிருத்தே மான்யம் பவதி இதி. சம்ஸ்கிருத வாங்மயஸ்ய த்விதீயா தாரா பவதி கா நாம க